सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं क्रियते। भगिनी एकवारं श्लोकान् स्मारयतु।
ॐ श्रीगणेशाय नमः। ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ॐ येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नम् तस्मै पाणिनये नमः। ॐ वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। श्री गुरुभ्यो नमः। हरिः ॐ।
धन्यवादाः भगिनी। धातुविज्ञानं द्वितीयभागः इति विषयः प्रवर्तमानः अस्ति। अद्यापि तस्यानुवर्तनं भवति। प्रक्रियाकाले लौकिकरूपसाधनवेलायां धातुभ्यः अनुबन्धवर्णानां निष्कासनानन्तरं धातुम् आश्रित्य चत्वारि प्राकृतिकानि कार्याणि भवन्ति इति अस्माभिः पठितम्। प्रकृतिम् आश्रित्य इमानि कार्याणि भवन्ति। उपदेशावस्थायां धातोः रूपम् आश्रित्य इमानि कार्याणि भवन्ति। कार्याणि कानि? सत्वं, नत्वं, नुमागमः, उपधा, दीर्घः इत्यादिषु एकं कार्यं वा भवतु, कुत्रचित् कार्यद्वयमपि भवति। सत्वं, नत्वं च अस्माभिः पठितम्। अद्य नुमागमस्य प्रसङ्गे किञ्चित् चिन्तनं कुर्मः। शोपदेशधातुषु सत्त्वकार्यं भवति। उपदेशावस्थायाम् आदौ मूर्धन्यणकारः इत्युक्ते णोपदेशधातुषु णत्वविधिः भवति। तृतीयं प्राकृतिकं कार्यं नुमागमः। अग्रे गमनात् पूर्वं गतवर्गस्य प्रसङ्गे वक्तव्याः अंशाः केचन सन्ति। शोपदेशधातूनाम् आवलिं प्रेषितवती, भवद्भिः दृष्टमिति मन्ये। अणोपदेशधातूनाम् आवलिः अपि प्रेषितं। गतवर्गे प्रभावेन प्रभावेण अनयोः किं रूपं साधु इति प्रश्नः आगतः। तत्र रूपद्वयमपि साधु एव। प्रभावेन प्रभावेण रूपद्वयमपि साधु। तत्र प्रातिपदिकान्त नुं विभक्तिषु च इति णत्वविधायकसूत्रेण तत्र णत्वकार्यं भवति। प्रातिपदिकान्त नुं विभक्तिषु च इति सूत्रं, तत्र विभक्तिसम्बद्धनकारः अस्ति। अपि च गते वर्गे अट्कुप् आङ् नुं व्यवायेपि इति णत्वविधायकसूत्रमपि वयं पठितवन्तः। व्यवायः इति पदमस्ति। व्यवायः इत्युक्ते व्यवधानं। रेफदन्त्यनकारयोः मध्ये अट्कुप् आङ् नुमः एतेषु वर्णेषु एकः वर्णः वा भवतु, बहवः वर्णाः वा भवन्तु, व्यवधानरूपेण मध्ये रेफदन्त्यनकारयोः मध्ये एते वर्णाः सन्ति चेदपि दन्त्यनकारस्य अणकारादेशः भवति इति अट्कुप् आङ् नुं व्यवायेपि इति सूत्रेण उच्यते। अणोपदेशधातुषु उपसर्गे निमित्तमस्ति चेत् समासे असमासे अपि णत्वं भवति। पञ्चत्रिंशत् णोपदेशधातवः सन्ति। ते धातवः प्रसिद्धधातवः। तेषु धातुषु उपसर्गादसमासे णोपदेशस्य इति सूत्रेण उपसर्गस्थात् निमित्तात् कार्यं भवति। समासे इत्युक्ते समस्तपदेषु तिङन्तपदेषु अपि कार्यं भवति। अपि च उपदेशावस्थायां केवलम् अष्टधातवः एव दन्त्यनकारादयः सन्ति, तेषु इदं कार्यं न भवति। अपि च अट्कुप् आङ् नुं व्यवायेपि इत्यस्मिन् सूत्रे नुम् इति उक्तमस्ति। नुम् इत्युक्ते अनुस्वारः। अनुस्वारः द्विधा भवितुमर्हति। कथम्? स्वाभाविकः अनुस्वारः, नुम् इत्यस्मात् आगतः अनुस्वारः. स्वाभाविक अनुस्वारः तृण् इति एकः धातुः अस्ति, तस्मिन् धातौ दन्त्यनकारः अस्ति. पश्चात् किं भवति, नश्चापदान्तस्य झलि इति सूत्रेण सः दन्त्यनकारः अनुस्वारः भवति. इत्युक्ते तत्र सन्धिकार्यं भूत्वा दन्त्यनकारः अनुस्वारः भवति. तादृश अनुस्वारः मध्ये व्यवधानरूपेण अस्ति चेदपि णत्वं भवति. अट्कुप् आङ्नुं व्यवायेपि इत्यस्मिन् सूत्रे नुम् इति उक्तमस्ति. नुम् इत्युक्ते अनुस्वारः. द्रोः अनुस्वारसहितं रूपं त्रोः अस्ति चेत् तस्य ल्युडन्तरूपसाधनवेलायां त्रोः योगः अना इति रूपम् अस्ति. तत्र युवोरनाकौ इति सूत्रेण अना आदेशः भवति ल्युडन्तपदेषु इति अस्माभिः पठितम्. त्रोः योगः अना, त्रोहन इति रूपम् आयाति. किन्तु तत्र ऋकारः निमित्तमस्ति. ऋकारः अपि रेफांशयुक्तः इति कृत्वा निमित्तं भवितुमर्हति. रुवर्णात् नस्य णत्वं वाच्यम् इति वार्तिकेन त्रोहणम् इत्यस्मिन् पदे णत्वं भवति. णत्वसहितं रूपमेव लेखनीयं. त्रोहणम् इति तत्र रूपमस्ति. ऋकार दन्त्यनकारयोः मध्ये अनुस्वारः अस्ति, हकारः अस्ति, अपि च अट् प्रत्याहारस्थवर्णः अकारः अपि अस्ति. त्रोहणम् णत्वसहितं रूपम् अस्ति. तत्र अनुस्वारः व्यवधानरूपेण अस्ति चेदपि तस्मिन् पदे णत्वं भवति. सः अनुस्वारः स्वाभाविकः अनुस्वारः इत्युक्ते दन्त्यनकारः नश्चापदान्तस्य झलि इति सूत्रेण अनुस्वारः भूत्वा आगतः. एकः अन्यः धातुः अस्ति, ब्रूह्यम् अस्ति. ब्रूह्यम् इति कथनेन धातौ अनुनासिक ह्रस्वइकारः इति संज्ञकः अस्ति. ब्रूह्यम् इत्यत्र इत्युक्ते ब्रूह्यम् इति धातुः इदित् धातुः. इदित् धातुः अस्ति इति कृत्वा अनुनासिक ह्रस्वइकारः इति संज्ञकः अस्ति इति कृत्वा उपदेशजुनुनासिक इत् इति सूत्रेण सः अनुनासिकीकारः इति संज्ञकः भूत्वा तस्य लोपः इत्यनेन अपगच्छति. तेन तत्र किं रूपमस्ति, ब्रुह् इति रूपमस्ति. ब्रुह् इत्यत्र इतोपि किं कार्यं भवति, अयं धातुः इदित् धातुः इत्युक्ते अस्मिन् धातौ ह्रस्वइकारः इत् संज्ञकः. सः धातुः इदित् धातुः अस्ति इति कृत्वा इदितः नुम् आगमः इति अस्माभिः पठितम्. इदितः धातोः नुम् आगमः भवति. तेन ऋकारात् परम् अन्तिम अचुवर्णात् परं तत्र ब्रूहि इति आदौ रूपमस्ति, ब्रुह् अभवत्. ब्रुह् इत्यत्र ऋकारात् परम् अन्तिम अचुवर्णात् परं नुमागमः भवति. तेन तत्र नकारः आयाति. तेन ब्रुन्ह् इति रूपमस्ति. पश्चात् नश्चापदान्तस्य झलि इति सूत्रेण सः नकारः अनुस्वारः भवति. ब्रूह्यम् इति आदौ रूपमस्ति, ब्रुन्ह् इदानीम् अभवत्. नुमागमः भूत्वा ब्रुन्ह् इति अभवत्. तत्र दन्तिनकारस्य स्थाने अनुस्वारः आयाति. अनुस्वारसहित धातुम् अधुना द्रष्टुं शक्नुमः. तस्य लुडन्तरूपसाधनवेलायां अन इति आयाति. ब्रूह् योगः अन, ब्रूहन इति रूपमस्ति. किन्तु तत्र ऋकारः निमित्तमस्ति इति कारणतः मध्ये अनुस्वारः अस्ति चेदपि अणत्वं भवति. ब्रूहणम् इत्यस्मिन् पदे अपि अनुस्वारः मध्ये व्यवधानरूपेण अस्ति चेदपि अट्कुप् आङ्नुं व्यवायेपि इति सूत्रेण अणत्वकार्यं भवति. किन्तु अत्र अनुस्वारः कथम् आगतः, अनुस्वारः कैः कैः सूत्रैः आगतं, तत्र इदितोनुं धातोः इति सूत्रेण नुमागमः भूत्वा नुमागमः भवति चेत् दन्त्यनकारः आदौ आयाति. सः दन्त्यनकारः नश्चापदान्तस्य झलि इति सूत्रेण अनुस्वारः भवति. इत्युक्ते भिन्नरीत्या अत्र अनुस्वारः आगतः. आहत्य मम आशयः अत्र एवम् अस्ति यत् अट्कुप् आङ्नुं व्यवायेपि इत्यस्मिन् सूत्रे नुम् इति उक्तमस्ति. नुम् इत्युक्ते अनुस्वारः. अनुस्वारः प्रकारद्वयेन आगन्तुं शक्नोति. स्वाभाविकः अनुस्वारः नुमागमः भूत्वा अपि अनुस्वारः आयाति इदित् धातुषु इति अत्र वार्ता अस्ति. प्रभावेन प्रभावेण रूपद्वयमपि साधु इति मया उक्तं. प्रातिपदिकान्तनुं विभक्तिषु च इति अणत्वविधायकसूत्रं. सखण्डपदेषु एव अस्य कार्यमस्ति. समस्तपदेषु एव अस्य कार्यमस्ति. समस्तपदम् इति कथनेन पूर्वपदमस्ति, उत्तरपदमस्ति. अत्र पूर्वपदे निमित्तमस्ति, उत्तरपदे दन्त्यनकारः अस्ति. तादृशी स्थितिः अस्ति चेत् प्रातिपदिकान्तनुं विभक्तिषु च इति सूत्रेण अत्र उत्तरपदे विभक्तिसम्बद्धनकारः अस्ति इति कृत्वा प्रातिपदिकान्तनुं विभक्तिषु च सूत्रेण णत्वकार्यं भवति. एतत् अवगन्तुं कानिचन पदानि वदामि. विभक्तिसम्बद्धनकारः कुत्र द्रष्टुं शक्नुमः इत्युक्ते तृतीया विभक्ति एकवचने, षष्ठी विभक्ति बहुवचने विभक्तिसम्बद्धनकारः आयाति. उदाहरणार्थं प्रभावेन प्रभावेण, रूपद्वयमपि साधु. हर्षभावेन हर्षभावेण, वारिवाहेन वारिवाहेण, व्रीहिवापेन व्रीहिवापेण, माषवापेन माषवापेण इति अत्र तृतीया विभक्ति एकवचने तत्र णत्वं विकल्पेन भवति एतादृशेषु समस्तपदेषु.
महोदय, रामेण रामेण एवमपि साधु वा? रामेण
रामेण इत्यस्मिन् पदे अट्कुप्वाङ्नं व्यवायेपि इति सूत्रेण भवति. रामेण इत्यस्मिन् पदे रेफः निमित्तम् अस्ति, किन्तु रेफात् साक्षात् अनन्तरं दन्त्यनकारः नास्ति, मध्ये व्यवधानमस्ति, व्यवधानरूपेण एकारः अस्ति इति कृत्वा अट्कुप्वाङ्नं व्यवायेपि सूत्रेण भवति. किन्तु समस्तपदेषु एतादृशेषु समस्तपदेषु भिन्नसूत्रेण दशाभ्यां नोणः समानपदे इति सूत्रं समानपदे एव तत्सूत्रं कार्यं करोति, किन्तु समस्तपदेषु भिन्नसूत्रेण अणत्वकार्यं भवति. षष्टिविभक्ति बहुवचनरूपाणि कानिचन रूपाणि वदामि. षष्टि बहुवचनान्तपदानि समस्तपदानि, तेषु पदेषु प्रातिपदिकान्तनुं विभक्तिषु च इति सूत्रेण अणत्वकार्यं भवति. हर्षभावानां हर्षभावाणां, प्रभावानां प्रभावाणां, रूपद्वयमपि साधु. वारिवाहानां वारिवाहाणाम् अत्र विकल्पेन रूपद्वयं सिध्यति. व्रीहिवापानां व्रीहिवापाणां, माषवापानां माषवापाणाम् इत्यादिषु पदेषु विभक्तिसम्बद्धनकारः उत्तरपदे अस्ति, निमित्तं पूर्वपदे अस्ति. माषवापाणाम् इत्यत्र माष इति पूर्वपदं, तत्र षकारः निमित्तम् अस्ति. निमित्तं षकारः अथवा रेफः पूर्वपदे अस्ति. उत्तरपदे विभक्तिसम्बद्धदन्त्यनकारः अस्ति इति कारणतः विशिष्टसूत्रेण अत्र णत्वकार्यं भवति. प्रकृतिविषयः नुमागमः, तृतीयं प्राकृतिकं कार्यं नुमागमः अस्ति. इदितः धातोः नुमागमः, इदित् धातुषु नुमागमः भवति. किञ्चित् पठित्वा चिन्तनं कुर्मः. गोमती भगिनी आरम्भं करोतु.
इदितो नुम् धातोः इति सूत्रम्. इदितः धातोः नुम् आगमः आगमो भवति. इदित् इत्युक्ते इत् इत् यस्य सः, तत्र प्रथमः इत् नाम ह्रस्व इकारः, द्वितीय इत् नाम इत् संज्ञा. ह्रस्व इकारस्य इत् संज्ञा यस्य सः धातु इदित्. इत् इत् यस्य सः इदित् बहुव्रीहिः, तस्य इदितः. इदितः षष्ट्यन्तं, नुम प्रथमान्तं, धातोः षष्ट्यन्तं, त्रिपदम् इदं सूत्रं. सूत्रं स्वयं सम्पूर्णं. इदितः धातोः नुम् सूत्रमस्ति. इदितो नुम् धातोः त्रिपदं सूत्रम्. इदितः नुम् धातोः इति सूत्रं वदति. इदितः धातोः नुम् आगमो भवति. इदितः धातोः विशेषणविशेषणं विशेष्यम् अत्र अस्ति. धातुः इदित् अस्ति चेत् नुम् आगमः भवति इति उक्तम्. इदित् इत्युक्ते इत् इत् यस्य सः, इदित् इत् इत् अत्र प्रथमतकारान्तं झलां जशोन्दे सूत्रेण दकारः भवति. इदित् इति भवति. प्रथम इत् इत्यस्य अर्थः भवति ह्रस्व इकारः इति. यदा आत् इति आकारः वदामः, उत् इत्यस्य उकारः वदामः, तदा इत् इत्युक्ते ह्रस्व इकारः. अनन्तरं द्वितीय इत् अस्ति संज्ञा. इदित् इत्युक्ते ह्रस्व इकारः यत्र इत् संज्ञा रूपेण यत्र अस्ति तदेव इदित् इति. इदित् धातोः नुम् इति आगमः भवति. नुम् इत्युक्ते तत्र मकारः हलन्द्यम् इति सूत्रेण अपगच्छति. उकारः उपदेशे जन्मासिक इति सूत्रेण तदपि अपगच्छति, तस्य लोपः सूत्रेण. अनन्तरं न नकारः एव अवशिष्यते. इदितः षष्ट्यन्तम्, इदितः स्थाने नुम् प्रथमान्तम्, धातोः षष्ट्यन्तम्, त्रिपदमिदं सूत्रम्. धातोः इदितः धातोः विशेषणविशेषणमस्ति अत्र.
उत्तमं, तदेव.
अत्र इदितः स्थाने नास्ति न, बिकास् दिस् इस् आगमः. स्थाने इत्युक्ते षष्ठी अर्थः स्थाने इति न भवति, आगम एव. यदा स्थाने इत्युक्ते किमपि अपगच्छति तत्र स्थाने आगच्छति न, अत्र तु आगमः. अतः इदितः धातोः नकारः आगमरूपेण आगच्छति, तिष्ठति. कुत्र तिष्ठति तत्र अग्रे वदति.
उत्तमं भगिनि. भगिन्या यदुक्तं तत् सर्वं साधु. अत्र प्रथम इत् इत्यस्य अर्थः यस्मिन् धातौ अनुनासिक ह्रस्व इकारः इत् संज्ञकः अस्ति तेषु धातुषु नुमागमः भवति. अनुवृत्तिसहितसूत्रं पश्यामश्चेत् इदितः धातोः नुम् नुम् इति पदं प्रथमान्तं पदम् अस्ति. यत्र कुत्रापि सूत्रेषु प्रथमान्तं पदमस्ति चेत् आदेशः आगमः लोपः भवितुमर्हति. अत्र नुम् आगमः भवति. नुम् आगमस्य सूचकः इत्युक्ते कथं जानीमः आगमः एव इति कथं जानीमः इत्युक्ते आगमः त्रिधा भवन्ति. कित् आगमः, टित् आगमः, मित् आगमः. अत्र नुम् मित् आगमः अस्ति. मित् अस्ति इति कृत्वा इदित् धातुषु नुम् आगमः भवति इति एकः विषयः. अपि च अनुनासिकह्रस्व इकारः इति संज्ञकः अस्ति चेदेव कार्यं भवति. उदाहरणार्थम् एकः धातुः अस्ति जीरि, जीरि इति स्वादिगणे एकः धातुः अस्ति. तत्र के के वर्णाः सन्ति? जकारः अस्ति, इकारः अस्ति, रेफः अस्ति, इकारः अस्ति. द्विवारं ह्रस्व इकारः दृश्यते तस्मिन् धातौ. जीरि हिंसायाम् इति धातुः अस्ति, किन्तु तस्मिन् धातौ इकारः इति संज्ञकः नास्ति. इकारः अनुनासिक इकारः नास्ति. अनुनासिक ह्रस्व इकारः अस्ति चेदेव तस्य इत् संज्ञा एकेन विशिष्टसूत्रेण भवति इति अस्माभिः पठितम् उपदेशे जुन्नासिके इत्यनेन तस्य अनुनासिक ह्रस्व इकारस्य इत् संज्ञा भवति इति. जिरि इत्यस्मिन् धातौ अनुनासिक ह्रस्व इकारः नास्ति, इत्युक्ते तत्र इकारस्य इत् संज्ञा न भवति. अपि च दृशिर् इति एकः धातुः अस्ति, तत्र इर् मिलित्वा इत् संज्ञां कुर्मः. तादृशी स्थितिः अस्ति चेदपि नुमागमः न भवति. अनुनासिक ह्रस्व इकारः इति संज्ञकः भवति चेदेव नुमागमः भवति इति एकः विषयः. अपि च अत्र नक्षत्रचिह्नं स्थापितम् अस्ति. इत् नाम ह्रस्व इकारः. नक्षत्रचिह्नं किमर्थं स्थापितं, गोमती भगिनी वदतु.
दत्तमस्ति वा?
नक्षत्रचिह्नं किमर्थं स्थापितम् इत्युक्ते तस्मिन् प्रसङ्गे इतोपि किञ्चित् ज्ञातव्यं खलु.
ह्रस्व इकारः इत्युक्ते पाणिनीयमाहेश्वरसूत्राण्याम् इकारः इत्युक्ते सर्वे इकारः आगच्छति. अष्टादशरूप इकारः आगच्छति. अत्र तु अनुनासिक इकारः एव तस्य एव प्रसक्तः अस्ति. किमर्थं चेत् तदेव इत्संज्ञा भूत्वा अपगच्छति. अन्य इकारः तिष्ठति. तदा ह्रस्व इकारः तदेव अहं जानामि भगिनि.
तदेव अष्टादश इकाराणां प्रतिनिधिः अस्ति चेदपि अत्र तपरस्तत्कालस्य इति परिभाषासूत्रेण ह्रस्व इकारस्य एव ग्रहणं भवतु तपरस्तत्कालस्य इति सूत्रेण अत्र प्रथम इत् इति कथनेन ह्रस्व अनुनासिक इकारः एव स्वीकर्तव्यः, न तु दीर्घ इकारः, न तु प्लुत इकारः इति अत्र वार्ता. ह्रस्व इकारस्य इत् संज्ञा यस्मिन् धातौ अस्ति तेषु धातुषु मध्ये नुमागमः भवति इति. साधु भगिनी,
भगिनी, आगमः त्रिप्रकारः एव वा? तित् कित् सोरि, नुमागमः तित् कित्
अग्रे आयास्यति. आद्यन्तौ टकितौ इति सूत्रस्य प्रसङ्गे किञ्चित् अवलोकयामः. आगमाः त्रिधा भवन्ति, तित् आगमाः, कित् आगमाः, मित् आगमाः. अत्र नुम् मित् आगमः अस्ति. तित् आगमः कुत्र भवति? मम अवगमनम् एवम् अस्ति, लुङ् लङ् लृङ्क्षु अट् उदात्तः इति एकं सूत्रम् अस्ति. इत्युक्ते भूतकालरूपेषु अट् आगमः भवति. अट् आगमः कुत्र भवति? आदौ भवति. तदर्थमेव पठ् धातोः लङ् लकाररूपम् अपठत्, अङ्गात् पूर्वं, धातोः पूर्वम् अट् आगमः भवति. आदौ टित् आगमः भवति. सुट् आगमः इत्युक्ते सकारः आगमरूपेण आयाति. संस्कृतं, संस्कारः, संस्कर्ता इत्यादिषु पदेषु सुट् आगमः भवति. सुट् इति कथनेन तत्र सकारः आगमरूपेण आयाति. अपि च अर्धधातुकप्रक्रियायाम् इट् आगमः भवति. अर्धधातुकप्रक्रियायाम् अर्धधातुकलकारेषु अथवा अर्धधातुककृदन्तरूपेषु इट् आगमः भवति. इड् आगमः इति वक्तव्यमस्ति. उदाहरणार्थं पठित इति क्तान्तरूपं, पठ् धातुः अस्ति, क्तप्रत्ययं योजयामः, पठित इति रूपं सिद्ध्यति. तत्र मध्ये इडागमः भवति. इट् आगमः इत्युक्ते ह्रस्व इकारः आगमरूपेण आदौ आयाति. इट् आगमः, सुट् आगमः, अट् आगमः, एते आगमाः टित् आगमाः. इत्युक्ते एतेषु आगमेषु टकारः इति संज्ञकः अस्ति इति कृत्वा आद्यन्तौ टकितौ इति सूत्रेण सः आगमः आदौ आयाति. आर्धधातुकस्येड्वलादेः इति विधायकसूत्रमस्ति. इडागमविधायकसूत्रम् आर्धधातुकस्येड्वलादेः, आर्धधातुकस्य इट् वलादेः. वलादि आर्धधातुकप्रत्ययः परः अस्ति चेत् प्रत्ययस्य आदौ इडागमः भवति. एतद् अवगन्तुं पठित इति पदं स्वीकर्तुं शक्नुमः. नो चेत् आर्धधातुकलकारः लृट् अस्ति, लृट् लकारः भविष्यत्कालरूपं, पठिष्यति इति रूपम् अस्ति. तत्र पठ् धातुः इष्यति इति योजयामः. स्यति इति प्रत्ययः अस्ति, प्रत्ययस्य आदौ इडागमः भवति. आहत्य तित् आगमाः आदौ भवन्ति. किन्तु अत्र आगमः मित् आगमः. अत्र कार्यं किञ्चित् भिन्नरीत्या भवति. अपि च कित् आगमानां प्रसङ्गे अवगन्तुम् एकं पदं वदामि. भी धातुः अस्ति, भी धातुतः णिच् प्रत्ययस्य योजनेन, भी धातुतः प्रेरणार्थे णिच् योजनेन भीषयति इति रूपं सिद्ध्यति. भीषयति, तत्र शुक् आगमः भवति. शुक् इत्युक्ते शकारः आयाति. धातुः भी अस्ति, णिच् योजयामः, तत्र विशिष्टसूत्रेण शुक् आगमः भवति, शकारः आयाति. शुक् आगमः कित् अस्ति इत्युक्ते शुक् इत्यस्मिन् ककारः इति संज्ञकः. शुक् आगमः, कित् आगमः, सः आगमः कित् अस्ति इति कृत्वा कुत्र आयाति? आद्यन्तौ टकितौ इति सूत्रेण तस्य उत्तरं दीयते. तत्र शुक् आगमः धातोः अनन्तरम् आयाति, कित् आगमः अन्ते आयाति इति वक्तव्यमस्ति. तेन भी योगः शुक् योगः णिच् योगः ति इति स्थितिः अस्ति. भी योगः शकारः योगः णिच्. भी इति धातोः अन्ते शुक् आगमः भवति. शुक् कित् अस्ति इति कृत्वा कित् आगमाः अन्ते आयान्ति. शुक् आगमः भूत्वा णिजन्तरूपं भीषयति.
भगिनि, भीष्मः, भीष्मः इति रूपं भीषयति इति रूपेण एव उद्धृतः किल भीष्मः?
भी धातुतः निर्मितं पदमिति मन्ये भवितुमर्हति. अस्तु, भीषयति इत्यत्र शुक् आगमः भवति. शुक् आगमः कित् अस्ति, कित् अस्ति इति कारणतः अङ्गस्य अन्ते आयाति. आहत्य आगमाः त्रिधा भवन्ति. यस्मिन् आगमे टकारः इति संज्ञकः मूर्धन्यटकारः इति संज्ञकः अस्ति. ते आगमाः टित् आगमाः. तदवगन्तुम् आर्धधातुकस्येड् वलादेः इति सूत्रं परिशीलनीयम्. अपि च लुङ् लङ् ऋङ्क्षु अट् उदात्तः, तस्मिन् सूत्रे इट् आगमः भवति, सुट् आगमः अपि भवति. एते टित् आगमः. कित् आगमस्य प्रसङ्गे भीषयति इति पदं परिशीलयामश्चेत् अवगन्तुं शक्नुमः. किन्तु अत्र स्थितिः का? अत्र आगमः मित् अस्ति. नुम् इति कथनेन मकारहितसंज्ञकः, यस्मिन् मकारहितसंज्ञकः अस्ति सः मित् आगमः. यस्मिन् आगमे मकारः हितसंज्ञकरूपेण अपगच्छति. अत्र पश्यन्तु एकं वाक्यं लिखितम् अस्ति, नुम् इति आगमे हलन्त्यमित्यनेन मकारस्य इति संज्ञा, उपदेशजनुनासिक इत् इति सूत्रेण अनुनासिक उकारस्य इति संज्ञा भूत्वा केवलं दन्त्यनकारः एव अवशिष्यते. नुमागमः मित् अस्ति. इदानीं सुन्दरमहोदय द्वितीयपरिच्छेदात् आरभ्य पठतु.
तर्हि यः धातु धातुः इदित् अस्ति, तर्हि यः धातुः इदित् अस्ति तस्य नुमागमः भवति इति इदं सूत्रं सूचयति. बहवः इदितः धातवः सन्ति यत्र कुत्रापि धातौ ह्रस्व इकारस्य इत्संज्ञा भवति तस्मिन् धातौ नुम् आगमः भवति एव. सः धातुः इदित् अस्ति अतः नुमागमः. यस्मिन् धातौ इत्वर्णः ह्रस्व इत् धातुः इत्संज्ञा भूत्वा अपगच्छति तादृशः धातुः तत्र नुमागमः आगच्छति एव इति सूचयति. यः धातुः इदित् अस्ति तस्य नुमागमः भवति एव इति इदं सूत्रं सूचयति. यत्र कुत्रापि ह्रस्व इकारः इत्संज्ञा भूत्वा अपगच्छति तादृशः धातुषु नुम् इति आगमः भवति एव. सः धातुः इदित् अस्ति.
इदित् धातुषु नुमागमः इति कार्यम् आदौ करणीयम्. इत्युक्ते उपदेशावस्थायां धातोः रूपं कथम् अस्ति इति आदौ द्रष्टव्यं. धातुः इदित् अस्ति चेत् नुमागमः सर्वदा भवति. अत्र उदाहरणं दत्तमस्ति, पठतु.
उदाहरणं यथा निधिम् इति उपदेशिकधातुः निद् णो नः इत्यनेन निद् अस्ति. अयं धातुः इदित् नाम ह्रस्व इकारः इत्संज्ञकः यस्य सः निद् धातोः इत् अस्ति इति कारणेन नुमागमः भवति. अधुना निद् धातौ नुम् कुत्र आयाति? निद् धातौ नुम् कुत्र आयाति? नुम् आगमः मित्. अतः अयं नकारः धातोः अन्तिमस्वरात् परे आयाति इति अग्रिमं सूत्रं सूचयति. ओके. निधिम् इति धातौ इम् इ अन्तिम इकार ह्रस्व इकारः अनुनासिकवर्णः अस्ति इति कारणेन इत्संज्ञा भूत्वा अपगच्छति. तत्कारणेन एतत् निधिम् इति धातुः इदित् अस्ति. कारणं ह्रस्व इकारः इत्संज्ञा भूत्वा अपगच्छति इति कारणेन. निद् अस्ति. निद् णो नः इति सूत्रेण निद् अस्ति. निद् धातोः इत् निद् धातो निद् निद् धातोः इत् वर्णः इत्संज्ञा अस्ति इति कारणेन नुमागमः भवति एव. अधुना निद् धातौ नुम् कुत्र आयाति इति प्रसङ्गे नुम् आगमः मित् अस्ति. नुम् इति इति आगमः मित् अस्ति मकारस्य कारणेन मित् अस्ति अतः अयं नकारः धातोः अन्तिमस्वरात् परे आयाति अन्तिमस्वर स्वरः इति नि अत्र अन्तिमस्वरः किम् इ इकारः एव अन्तिमस्वरः तस्य परतः आयाति इति अग्रिमं सूत्रं सूचयति.
अत्र वक्ति इति पदं दत्तमस्ति, अदादिगणीय धातोः रूपम् अस्ति. णेद्यो इति धातुतः लौकिकधातोः रूपम्, औपदेशिकधातुतः लौकिकधातोः रूपं साधयितुं सोपानानि अस्मिन् परिच्छेदे दत्तानि. णेद्यो इति धातुतः आदौ किं भवति, अनुनासिक ईकारस्य इति संज्ञा भूत्वा णिद् भवति. पश्चात् धातोः आदौ उपदेशावस्थायां मूर्धन्यणकारः अस्ति इति कारणतः णोनः सूत्रेण मूर्धन्यणकारस्य स्थाने दन्त्यनकारः आयाति इति द्वितीयं सोपानम्. आदौ इतिसंज्ञकवर्णानां निष्कासनं, पश्चात् णोनः कार्यं, पश्चात् अयं धातुः इदित् धातुः अस्ति इति कृत्वा णुमागमः. धातौ प्राकृतिककार्यद्वयं करणीयम्. णोनः इत्यनेन कार्यं भवति, णोनः इत्यनेन मूर्धन्यणकारस्य दन्त्यनकारः भवति, पश्चात् नुमागमः अपि भवति. एतादृशधातवः बहवः सन्ति इदित् धातवः. उदाहरणार्थम् अक्यौ अस्ति चेत् अङ्क् भवति, भज्यौ अस्ति चेत् भञ्ज् भवति, कुठिम् इत्यत्र कुण्ठ् भवति. चिन्तयति वयं जानीमः खलु, चितौ इति धातुतः एव चिन्तयति इति रूपं सिद्ध्यति. तत्र धातुः इदित् धातुः, चितौ चिन्त् भवति, जभ्यौ जम्भ. एवं रीत्या बहवः इदित् धातवः सन्ति. इदितोनुं धातोः इति णुमागमविधायकसूत्रम्, इदं विधायकसूत्रम्. अनेन कार्यं भवति. कार्यं किम्? आगमः एव कार्यम्, णुमागमः एव कार्यं भवति. अयं णुमागमः कुत्र भवति इति अवगन्तुम् अन्यस्य सूत्रस्य आवश्यकता अस्ति. यत्र विधिसूत्रेषु स्पष्टता नास्ति तत्र परिभाषासूत्रम् आगत्य साहाय्यं करोति इति अस्माभिः पठितम्. अत्र एकं परिभाषासूत्रम् आवश्यकम्. अयं णुमागमः कुत्र भवति इति प्रश्ने सति तत्र मिदचोन्त्यात् परः इति परिभाषासूत्रम् आगत्य साहाय्यं करोति. तेन सूत्रेण किमुच्यते इति अस्माभिः ज्ञातव्यम्. लक्ष्मी भगिनी भवती पठतु.
मिदचोन्द्यात् परः यः मित् अस्ति सः अच् वर्णेषु अन्द्यात् परः आयाति. अपि च अयं मित् वर्णसमुदायस्य तस्य अन्तिमवयवो भवति. इत् यस्य सः मित् बहुव्रीहिः. मित् प्रथमान्तम्, अचः षष्ट्यन्तम्, अन्त्यात् पञ्चम्यन्तम्, परः प्रथमान्तम्. अनेकपदमिदं सूत्रम्. आद्यन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः. अस्मिन् सूत्रे अचः षष्टिविभक्तौ, अचः अन्त्यात् इत्यस्य अर्थः निर्धारणं, नाम सर्वेषु स्वरेषु अन्तिमः तस्मात्. अत्र अचः एकवचने यतोहि अनेन अच् जातिः इति इष्टम्. आशयः बहुवचनं निर्धारणसप्तमी बहुषु एकं जात्याख्यायामेकस्मिन् बहुवचनं मन्यतरस्यां जाति आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्यां. तर्हि अजः एकवचने चेदपि सार्वत्रिक बहुवचनार्थकः इत्यश्च इत्थं च षष्टिविभक्तेः अर्थः स्थाने इति न षष्टिस्थाने योग इति सामान्यम् इदं सूत्रं विशेषः अनुवृत्तिसहितसूत्रं मित् अचः अन्त्यात् परः अन्तः
अत्र बहु किमपि लिखितं खलु प्रत्येकं वाक्यं स्वीकृत्य विवृणोतु
यः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति अस्मिन् मित् नुम् आगमः मित् अतः तस् सः अच् वर्णेषु अन्त्यात् परः आयाति अन्तिमवर्णस्य पश्चात् आयाति अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिमावयौ भवति समुदायः अस्ति वर्णसमुदायस्य अन्तिम अच् वर्णात् परः आयाति
अत्र विषयद्वयम् उक्तमस्ति अयं मित् आगमः कुत्र आयाति इत्यस्य उत्तरमपि मिदचोन्त्यात् परः इति सूत्रेण दीयते द्वितीयविषयः अस्ति यस्य वर्णसमुदायस्य आगमः भवति तस्य अन्तिम अवयवः अपि भवति इति यस्य वर्णसमुदायस्य आगमः भवति तस्य अन्तिम अवयवः अपि भवति निद् धातोः प्रसङ्गे तस्य अवसरः नास्ति किन्तु सुबन्तप्रक्रियायां तस्य आवश्यकता अस्ति सूत्रेण विषयद्वयमुच्यते प्रथमविषयः मित् आगमः अन्तिमस्वरवर्णात् परम् अथवा अन्तिम अच् वर्णस्य अनन्तरं तत्र पश्यन्तु तस्मात् परं तस्मात् पूर्वम् इति पञ्चमीविभक्तेः प्रयोगः भवति तस्मात् पूर्वं तस्मात् परम् अथवा तस्य अनन्तरम् इति वक्तव्यमस्ति इत्युक्ते सः मित् आगमः अन्तिम अच् वर्णस्य अनन्तरम् आयाति उदाहरणं पुनः परिशीलयामश्चेत् निद् इत्यस्मिन् नकारात् परं ह्रस्वैकारः सः एव अन्तिम अचुवर्णः किमर्थम् अन्तिम अचुवर्णः इति उक्तमस्ति अस्मिन् शब्दे बहवः अचुवर्णाः भवितुम् अर्हन्ति बहवः अचुवर्णाः सन्ति चेदपि अन्तिम अचुवर्णस्य अनन्तरम् एव अयं नुमागमः भवति अपि च नुमागमः भूत्वा तस्य वर्णसमुदायस्य अन्तिम अवयवः भवति इति द्वितीयविषयः द्वितीयविषयस्य प्रसङ्गे एव अग्रिमे परिच्छेदे व्याख्यानं दत्तमस्ति कथम् अङ्गस्य अन्तिम अवयवः भवति इति अवगन्तुम् अग्रिमे परिच्छेदे लिखितम् अस्ति मकारः इत्यस्य सः मित् खलु बहुव्रीहिसमासस्य एवं रीत्या विग्रहवाक्यं वक्तव्यं तित् अस्ति चेत् विग्रहवाक्यं
टकारस्य टकार इत् यस्य सः टित्
कित् अस्ति चेत्
टकार इत् संज्ञा यस्य सः कित्
सुट् अस्ति चेत् सुट् इत्यस्मिन् किं भवति टकारः इत् संज्ञकः एवं रीत्या बहुव्रीहिसमासस्य विग्रहवाक्यानि वक्तव्यानि सूत्रस्य पदानां प्रसङ्गे किं लिखितं वदतु
मित् प्रथमान्तम् अचः षष्ट्यन्तम् अन्त्यात् पञ्चम्यन्तं परः प्रथमान्तम् अनेकपदम् इदं सूत्रम्
अत्र अचः षष्ट्यन्तमस्ति अचः अचोः अचाम् इति षष्टिविभक्त्यन्तरूपाणि भवन्ति अत्र अचः इति एकवचने एव दत्तमस्ति अत्र अचः इति षष्ट्यन्तं पदम् अस्ति चेदपि तस्य स्थाने इति अर्थः अत्र नास्ति खलु
आम्
अचः इति पदस्य प्रसङ्गे इतोपि किं वक्तव्यं वदतु साधारणतया सूत्रेषु षष्टिविभक्त्यन्तं पदमस्ति चेत् षष्टिस्थाने योग इति परिभाषासूत्रेण षष्टिविभक्त्यन्तं पदं स्थानीभवति इत्युक्ते षष्टिस्थाने योग इति सूत्रं सामान्यसूत्रं किन्तु इदं सूत्रं विशेषसूत्रम् अस्मिन् सूत्रे अचः इति पदम् एकवचने अस्ति चेदपि तत्र बहुवचने अस्य अर्थः भवति कथम् षष्टिविभक्तेः प्रयोगः निर्धारणार्थं कृतमस्ति अत्र निर्धारणषष्टी इति वक्तव्यमस्ति एतदवगन्तुं कानिचन अन्यानि उदाहरणानि अस्माभिः परिशीलनीयानि कक्षायां बहवः छात्राः सन्ति तेषु एकः छात्रः उत्तमः इति वक्तुं बालकानां रामः उत्तमः तत्र बालकानां रामः उत्तमः इति वाक्यमपि साधु एव तत्र निर्धारणषष्टी अस्ति भिन्नरीत्या तदेव वाक्यं बालकेषु रामः उत्तमः बालकेषु रामः उत्तमः तद्वाक्यमपि साधु एव. तत्र निर्धारणसप्तमी अस्ति. निर्धारणषष्ठी अथवा निर्धारणसप्तमी द्वयोः अर्थः समानः. तत्र एकं सूत्रमस्ति व्याकरणे, यतश्च निर्धारणम् इति सूत्रं. यतश्च निर्धारणम् इत्यस्मिन् सूत्रे षष्ठी अपि च सप्तमी इति पदद्वयम् अनुवृत्तिरूपेण आयाति. यत्र निर्धारणं क्रियते तत्र षष्टिविभक्तेः रूपमपि साधु, सप्तमीरूपमपि साधु. कथं? गवां कृष्णा बहुक्षीरा, तथा एव गोषु कृष्णा बहुक्षीरा. तत्र गवाम् इति रूपमपि साधु, गोषु इति रूपमपि साधु. निर्धारणषष्ठी अथवा निर्धारणसप्तमी इति तत्र वक्तव्यमस्ति, यतश्च निर्धारणम् इति सूत्रेण. एवमेव अत्र अचः इत्यस्य अर्थः, तस्मिन् शब्दे बहवः अचुवर्णाः सन्ति चेदपि तेषु स्वरवर्णेषु इति अत्र अर्थः. सर्वेषु अचुवर्णेषु, सर्वेषु स्वरवर्णेषु अन्तिम अचुवर्णस्य अनन्तरं नुमागमः भवति. सर्वेषु स्वरेषु इत्यस्मिन् अर्थे अत्र अचः इति पदस्य प्रयोगः भवति. सर्वेषाम् अचुवर्णानाम् अन्तिम अचुवर्णात् परम् एव कार्यं भवति इति अत्र अर्थः. स्थानी इति अर्थः नास्ति, सम्बन्धार्थः नास्ति. अत्र षष्ट्यन्तं पदं सूत्रे अस्ति चेदपि तस्य भिन्नार्थः अत्र अस्ति. तदर्थमेव अग्रिमे वाक्ये निर्धारणसप्तमी इति लिखितमस्ति. अत्र आशयः तु निर्धारणषष्टि. बहवः अचुवर्णाः सन्ति चेदपि अन्तिमस्वरवर्णस्य अनन्तरम् अयं नुमागमः भवति.
अत्र अन्तिम अचुवर्णात् परः आयाति इति उक्तं चेत् पुनः अन्तिम अवयवं भवति इति वक्तव्यं वा?
तदपि अस्ति, अन्तिम अवयवः अपि भवति. तदवगन्तुम् अत्र धातोः प्रसङ्गे तं विषयम् अवगन्तुं न शक्नुमः, किन्तु सुबन्तप्रक्रियायां तस्य प्राधान्यमस्ति इति. सुबन्तप्रक्रियायाम् एव अयं मितागमः शब्दस्य अन्तिम अवयवः भवति इति अवगन्तुम् अत्र ज्ञानानि इति सुबन्तपदं, ज्ञानानि इति सुबन्तपदनिर्माणावसरे अयं मितागमः तस्य अन्तिम अवयवः भवति. अत्र एकं विशिष्टं सूत्रं दत्तमस्ति, जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्यां, वदतु.
जात्याख्यायाम् एकस्मिन् बहुवचन मन्यतरस्यां, जात्याख्यायामेकस्मिन् बहुवचन बहुवचनम् अन्यतरस्यां, पूर्णं दीर्घसूत्रमस्ति.
तस्य सूत्रस्य प्रसङ्गः अत्र किमर्थं?
निर्धारणे
अत्र वार्ता भिन्ना अस्ति. जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्, अत्र सूत्रे किं लिखितम्? अन्यतरस्याम्, अन्यतरस्याम् अथवा वा विकल्पेन इति अर्थः. अन्यतरस्याम् इति पदं सूत्रे अस्ति चेत् विकल्पेन इति अर्थः. अपि च व्याकरणे यत्र कुत्रापि जातेः उल्लेखः भवति तत्र सामान्यतया एकवचने एव क्रियते. पाणिनीयसूत्रेषु विकल्पेन वैकल्पिकरीत्या एकवचने अथवा बहुवचने अपि भवितुमर्हति. जातेः उल्लेखः यत्र कुत्रापि भवति तत्र विकल्पेन एकवचने अथवा बहुवचने अपि वक्तुं शक्यते. तस्य अर्थः कः? अत्र अच् इति एका जातिः. अच् जातौ सर्वे स्वराः सन्ति. अच् जातौ सर्वे स्वराः अन्तर्भूताः. अत्र जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति कथनेन यद्यपि अत्र अचः इति एकवचने उक्तमस्ति, तथापि तस्य आशयः तु बहुवचनमेव इति अवगन्तुम् जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् अत्र अच् जातेः प्रसङ्गः अस्ति. अच् जातौ सर्वे स्वराः अन्तर्भूताः सन्ति इति कृत्वा यद्यपि सूत्रे अचः इति पदम् एकवचने दत्तमस्ति चेदपि बहुवचने स्वीकर्तव्यम्. अत्र विषयत्रयमस्ति, अचः इति एकवचने अस्ति चेदपि बहुवचने स्वीकर्तव्यम्. तदर्थमेव अचः इति पदं सार्वत्रिक बहुवचनार्थकः इति लिखितमस्ति. बहुवचनार्थे एव अत्र स्वीकर्तव्यम्. अपि च स्थानी इति अर्थः नास्ति, सम्बन्धार्थः नास्ति. अत्र बहुषु एकं, सर्वेषु अचुवर्णेषु अन्तिम अचुवर्णः इति. अत्र यतश्च निर्धारणम् इत्यनेन निर्धारणषष्टी अस्ति. सूत्रे अन्तः इति पदमपि अस्ति. मित् अचः अन्त्यात् परः अन्तः. अन्तः इति पदं किमर्थं लिखितम् अस्ति? अन्तः इत्युक्ते सः मित् आगमः अन्तिमावयवः भवति. अन्तः इति पदम् अवगन्तुं महोदय भवान् एव अग्रिमपरिच्छेदं पठतु.
भगिनि तत्र एक प्रश्नः अस्ति, तत्र मिद् अचः तु षष्ट्यन्तम् अस्ति किन्तु पञ्चम्यन्तम् अपि भवितुम् अर्हति तदेव रूपं. तत् अस्ति चेत् सर्वं स्पष्टमेव भवति. इत्युक्ते तस्य परि अच परि तदपि भवितुम् अर्हति भगिनि.
पञ्चम्यन्तम् इति साधु एव, किन्तु व्याख्याने किं लिखितम् अस्ति इति तदेव अस्माभिः स्वीकर्तव्यम्.
अस्तु अस्तु अस्तु, समानरूपं पञ्चमी षष्ठी इति मन्ये इति चेत् अहं वदामि भगिनि. अस्ति एकम् अन्य प्रश्न अस्ति भगिनि, आख्यायाम् इत्युक्ते
यत्र उक्तम् अस्ति इति
जाति आख्यायाम् इति
जात्याख्यायाम् इति विषयसप्तमी, यत्र यत्र जातेः उल्लेखः भवति व्याकरणे तत्र पाणिनीयसूत्राणाम् आधारेण तत्र विकल्पेन एकवचने अथवा बहुवचने अपि वक्तुं शक्यते. रामचन्द्रन् महोदय कृपया वदतु.
भगिनि अन्य तत् अचः पञ्चमी इति स्वीकुर्मः चेत् तस्मादिति उत्तरस्य इति कारणेन परम् इति भवति एव किल. पूर्वम् एका भगिनी पृष्टवती किल अचः इति पञ्चमी रूपमपि अस्ति, तर्हि साधुत्वं कल्पयितुं शक्नुमः किल तस्मादिति उत्तरस्य इति सूत्रेण. अत्र अचः षष्ठी अस्ति व्याख्याने उक्तमस्ति इति, तद् एकवचनं किन्तु बहुवचनरूपेण इदानीन्तनसूत्रेण स्वीकर्तव्यम् अन्यतरस्यामिति विकल्पेन स्वीकर्तव्यम् इति. यदि पञ्चमी इति स्वीकुर्मः अचः इति रूपं पञ्चमी इति स्वीकुर्मः चेत् तस्मादिति उत्तरस्य इति सूत्रेण पञ्चमी अपि साधु इति स्वीकर्तुं शक्यते किल.
अत्र अन्त्यात् अचः इति अचः पञ्चमी एव, अन्त्यात् विशेषणविशेषभाव इति स्वीकुर्मः चेत् अन्त्यात् अचः अचः पञ्चमी एव भवति.
पञ्चमी न भवति अन्त्यात् अन्त्यात् न्यूमागमः भवति. कस्य अन्त्यात्? अचः अन्त्यात्. अत्र षष्ठी एव भवति अचः अन्त्यात् अचन्त्यात्
नास्ति.
यत्र अस्य समूहः अस्ति षष्ठी एव आगच्छति समूहस्य अन्त्यात् परः अन्तः. अण्ड् आख्यायाम् इत्युक्ते ऐ एम् थिङ्किङ्ग् विषयः जातिविषये एकस्मिन् बहुवचनम् अत्र नाम इति
अच् जातेः उल्लेखः अस्ति इति कृत्वा जाति आख्यायाम् अत्र यण्सन्धिः भूत्वा जात्याख्यायाम् इति सप्तम्यन्तं रूपं जातेः प्रसङ्गे जातेः विषये यत्र यत्र उक्तमस्ति तत्र विकल्पेन एकवचने अथवा बहुवचने अपि वक्तुं शक्यते इति कारणतः अचः अचाम् इति स्वीकर्तव्यम्.
एकम् उदाहरणरूपेण श्रुतवती, यदा वयं वदामः घृतं पिबामः एकबिन्दु घृतं न पिबामः. घृतम् इत्युक्ते एकवचने एव वदामः घृतं पिबामि, परन्तु एकबिन्दु नास्ति क्वचित् सम् क्वाण्टिटि इत्यत्र भवति. अतः अत्र अपि एक वचने उक्तं चेत् अपि बहुवचनं स्वीकरणीयम् इति अहं श्रुतवती. जलं पिबामि, एकबिन्दु जलं न पिबामि.
उत्तमं भगिनि, तदेव अत्र जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् अत्र अच् जातिः अस्ति. सर्वे स्वराः अच् प्रत्याहारे अन्तर्भूताः, अच् जातेः प्रसङ्गः अस्ति अत्र. अच्सु इत्युक्ते सर्वेषु अचुवर्णेषु अन्तिम अचुवर्णः इति वक्तुम् अत्र निर्धारणषष्ठी इत्यस्य प्रयोगः कृतः. यथा मया पूर्वम् उक्तं, गवां कृष्णा बहुक्षीरा, गोषु कृष्णा बहुक्षीरा तत्तु कारकविषयः, किन्तु द्वयोः वाक्ययोः अर्थः तु समानः एव. अत्र अचः इति पदं षष्ट्यन्तमस्ति चेदपि षष्टिस्थाने योग इति सामान्यसूत्रेण स्थानी इति नास्ति. इत्युक्ते षष्ट्यन्तं पदं स्थानिनं न सूचयति, सम्बन्धषष्ठी अपि नास्ति अत्र. केवलं सर्वेषु स्वरवर्णेषु अन्तिमस्वरवर्णः इति वक्तुं तत्र निर्धारणषष्ठी उक्तमस्ति इति मम अवगमनं.
अतः चेह सर्वेषु स्वरेषु सर्वाणां स्वराणाम् अतः अचः षष्ठी पञ्चमी न भवति तत्र.
साधु आद्यन्तौ टकितौ अस्ति खलु, तस्मिन् विषये वयं पूर्वं किञ्चित् ज्ञातवन्तः. आद्यन्तौ इति पदमस्ति, आदिश्च अन्तश्च आद्यन्तौ इति भवति. तत्र द्वन्द्वसमासं कृत्वा प्रथमा द्विवचनम् अस्ति. आद्यन्तौ टकितौ इति लिखितम् अस्ति. टकितौ इति कथनेन तत्र विग्रहवाक्यं टकौ इतौ ययोः तौ इति वक्तव्यमस्ति. टकितौ इति कथनेन टकारः इति संज्ञकः ककारः इति संज्ञकः यस्मिन् अस्ति सः इति तत्र अर्थः. टकौ इतौ ययोः तौ टकितौ तदपि द्विवचनरूपमेव. आद्यन्तौ इति द्विवचनं पदं, टकितौ इति अपि द्विवचनं पदमस्ति. इदं परिभाषासूत्रम् आगमानां प्रसङ्गे साहाय्यं करोति. मया पूर्वम् उक्तम् आगमाः त्रिविधाः, मितः, कितः, तितः. तित् अस्ति चेत् आदौ, कित् अस्ति चेत् अन्ते सः आगमः भवति. किन्तु अत्र मित् आगमः अस्ति. मित् आगमः अन्तिमचुवर्णात् परम् आयाति, अपि च तस्य अवयवः अपि भवति. अन्तिम अवयवः कथं भवति इति एकवारम् अवलोकयामः. इदानीं गीताञ्जलि भगिनी भवती पठतु.
अस्मिन् सूत्रे इति न भगिनि, अस्मिन् सूत्रे नुमागमः यस्य वर्णसमुदायस्य आगमः तस्य अन्तिमावयवयोः भवति इति उक्तम्. अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे. ज्ञानशब्दः बहुवचने ज्ञानानि भवति. ज्ञानयोगः इ शि प्रत्ययः लशक्वतद्धिते इत्यनेन इ अवशिष्यते. मिदचोन्त्यात् परः इत्यनेन नुमागमः ज्ञानयोगः नकारयोगः इ. अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिमावयवः इति कारणेन सर्वनामस्थाने चासम्बुद्धौ इत्यनेन अङ्गस्य उपधायाः दीर्घः ज्ञानान्योगः इ इति ज्ञानानि. यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयवः न भविष्यत्, अकारः उपधायां न भविष्यत्, सर्वनामस्थाने चासम्बुद्धौ इत्यनेन अकारस्य दीर्घादेशः च न भविष्यत्. अत्र यस्य वर्णसमुदाय आगमः तस्य अन्तिमावयवयोः भवति.
अन्तिम अवयवः भवति, अवयवो भवति इति कथनेन विसर्गसन्धिः भवति खलु?
आं भगिनि.
भेदः अस्ति, अवयवो भवति, अवयवयोः भवति, तत्र भेदः कः?
हा, अवयवयोः तु षष्ट्यन्तं रूपं
द्विवचनं, किन्तु अत्र अन्तिम अवयवः भवति इति रूपं विसर्गसन्धिं कृत्वा लिखितमस्ति खलु?
अत्र तु प्रथमान्तमेव.
अनुवृत्तिसहितसूत्रे अन्तिमं पदमस्ति अन्तः. अन्तः इति पदं किमर्थं लिखितम् अनुवृत्तिसहितसूत्रे इति अवगन्तुम् अयं परिच्छेदः. इदानीं वदतु.
अत्र ज्ञान इति धातो अस्ति चेत् इति शब्द अस्ति चेत् बहुवचनं कथं निष्पन्नं भवति इति किञ्चित् विवरणं दत्तं. तत्र ज्ञानयोगः इ आयाति. इ इत्युक्ते कथम् इ अवशिष्यते इत्युक्ते ई अवशिष्य वर्ण अस्ति लशक्वतद्धिते इति कारणेन इत् भूत्वा तदनन्तरं मिदचोन्त्यात् परः इति सूत्रेण अन्तिम अच् वर्णस्य परे नुम् आयाति नुम् इति मित् अस्ति इत् भूत्वा नकार तिष्ठति ज्ञानयोगः नकार इति ज्ञान न नकारपरे अ अस्ति तत् अन्तिम अच् अस्ति चेत् तस्य परे नुम् तः नकार आयाति अधुना ज्ञानयोग नकार इ तदनन्तरम् एकम् अन्यसूत्रम् अस्ति अत्र विशिष्टसूत्रमिति सर्वनामसम्बन्धे सूत्रम् अस्ति इत्युक्ते सर्वनामस्थाने चासम्बुद्धौ इत्यनेन उपधा दीर्घत्वं भवति उपधा दीर्घ भवति तेन ज्ञानानि भवति नकारदीर्घ भूत्वा ना भवति ज्ञानानि इति बहुवचन रूपं निष्पन्नं भवति इति दत्तं भगिनि
भवती सम्यक् उक्तवती एव पूर्वस्मिन् परिच्छेदे सार्वत्रिक इति पदमस्ति खलु सार्वत्रिक इति पदं तद्धितप्रत्ययान्तपदं सर्वत्र इति प्रातिपदिकात् सार्वत्रिक इति ठक् प्रत्ययान्तशब्दः तद्धितप्रत्ययान्तपदम् अस्ति अस्मिन् परिच्छेदे किं लिखितं भगिन्या उक्तमेव किन्तु मम अवगमनम् एवम् अस्ति इति वक्तुमेव वदन्ती अस्मि तावदेव नुमागमः वर्णसमुदायस्य अवयवः भवति एतद् अवगन्तुं सुबन्तप्रक्रियायाः विषये किञ्चित् ज्ञातव्यम् णिद् धातुतः निन्द् इति लौकिकरूपं साधयितुम् अस्य अवसरः नास्ति सुबन्तप्रक्रियायाम् एव अस्य अवगमनं सम्पूर्णतया भवितुं शक्नोति सुबन्तप्रक्रियायाः विषयः अत्र दत्तः ज्ञान इति प्रातिपदिकमस्ति ज्ञानप्रातिपदिकात् बहुवचने ज्ञानानि इति रूपं सिध्यति प्रथमाविभक्तौ बहुवचने ज्ञानानि एव द्वितीयाविभक्तौ अपि ज्ञानानि ज्ञानं ज्ञाने ज्ञानानि ज्ञानानि इति प्रथमाविभक्ति बहुवचनं वा भवतु द्वितीयाविभक्ति बहुवचनं वा भवतु रूपं साधयितुम् इमानि सोपानानि ज्ञातव्यानि बहूनि सोपानानि लिखितानि ज्ञानप्रातिपदिकं स्वीकृत्य बहुवचनप्रत्ययः कः सु औ जस् अम् औट् शस् इति वदामः एकविंशतिसुप्रत्ययाः सन्ति खलु स्वौजसमौट् इत्यस्मिन् दीर्घसूत्रे एकविंशति सुप्रत्ययाः सन्ति प्रथमाविभक्ति बहुवचनप्रत्ययः जस् अस्ति द्वितीयाविभक्ति बहुवचनप्रत्ययः शस् अस्ति अकारान्त नपुंसकलिङ्गपदेषु विशिष्टं कार्यं भवति प्रथमाविभक्ति बहुवचनप्रत्ययः अथवा द्वितीयाविभक्ति बहुवचनप्रत्ययः स्वौजसमौट् इति सूत्रेण आदौ विधीयते किन्तु जस् प्रत्ययस्य स्थाने अपि च शस् प्रत्ययस्य स्थाने प्रथमा बहुवचनप्रत्ययः द्वितीयाविभक्ति बहुवचनप्रत्ययस्य द्वयोः स्थाने नपुंसकलिङ्गपदेषु एकेन विशिष्टसूत्रेण जस् प्रत्ययस्य स्थाने शस् प्रत्ययस्य स्थाने जस्योः षि अग्रिमे परिच्छेदे लिखितमस्ति जस्योः षिः इति सूत्रेण षि आदेशः भवति इति प्रथमं सोपानं जस् प्रत्ययस्य स्थाने शस् प्रत्ययस्य स्थाने द्वयोः स्थाने षि आदेशः भवति नपुंसकलिङ्गे तत्र षि इति प्रत्ययः अस्ति प्रत्ययस्य विधानं कथं भवति अनेकाल्षित् सर्वस्य इति परिभाषासूत्रेण षि इति अनेकाल अस्ति अनेकालादेशः भवति न तु अन्तादेशः अलोन्त्यस्य इति सूत्रं वयं पठितवन्तः खलु तत्र अन्तादेशः भवति किन्तु जस्योः सिः इति सूत्रेण शीत् प्रत्ययः आदिष्टः भवति अनेकाल्षित् सर्वस्य इति परिभाषासूत्रेण अनेकालादेशः भूत्वा ज्ञानयोगः शि इति रूपम् अस्ति पश्चात् तालव्यषकारस्य इति संज्ञा लशक्वतद्धिते इत्यनेन भूत्वा तालव्यषकारः अपगच्छति तेन ज्ञानयोगः इ इति रूपं तत्र अस्ति ज्ञानायोगः इ इत्यत्र अदन्त नपुंसकलिङ्गपदेषु एकं विशिष्टं सूत्रम् आवश्यकं। नपुंसकस्य झलचः इति एकं सूत्रमस्ति। नपुंसकलिङ्गपदेषु नपुंसकस्य झलचः इति सूत्रेण नुम् आगमः भवति। तत् एकं सोपानं। नुम् आगमः भवति चेत् अत्र रूपं किं भवति? ज्ञानायोगः इ इति रूपम् अत्र अस्ति। पूर्वं ज्ञानयोगः नुम् योगः इ इति रूपं सिद्ध्यति। नपुंसकस्य झलचः इति सूत्रेण नुमागमः भूत्वा ज्ञानयोगः नुम् योगः इ इति रूपम् अस्ति। नुम् इति कथनेन तत्र नकारः एव अवशिष्यते। मकारः उकारः अपगच्छतः, तेन नकारः एव शिष्यते। तत्र रूपं किं सिद्ध्यति? ज्ञानयोगः नकारः योगः इकारः इति रूपं तत्र अस्ति। नुमागमः अन्तिम अचुवर्णात् परम् आयाति, अपि च तस्य अवयवः भवति इति अत्र परिशीलनीयम्। इदानीं स्थितिः का? तत्र ज्ञानयोगः नकारः योगः इ इति रूपम् अस्ति। अयं नुमागमः वर्णसमुदायस्य अन्तिम अवयवः भवति चेदेव सर्वनामस्थाने च सम्बुद्धौ इति सूत्रेण उपधायाः दीर्घत्वं भवितुमर्हति, नो चेत् न भवति, नो चेत् असाधुरूपं सिद्ध्यति। नुमागमः कस्य अवयवः भवति इति प्रश्ने सति अयं नुमागमः कस्य अवयवः भवति इत्युक्ते ज्ञान इति प्रातिपदिकस्य अवयवः भवति वा इति चिन्तनीयमस्ति। अवयवः इत्युक्ते तस्य भागः। इदानीं ज्ञानयोगः नकारः योगः इ इति स्थितिः अस्ति। ज्ञान इति प्रातिपदिकस्य वर्णसमुदायस्य अवयवः भवति इति कृत्वा ज्ञानन् इति रूपमस्ति। ज्ञान इति प्रातिपदिकस्य वर्णसमुदायस्य अवयवः भवति इति कृत्वा ज्ञानन् योग इ इति तत्र रूपम् अस्ति। इ कुतः आगतः? षि इत्यस्मात् आगतः। जश्यशोः षि इति सूत्रेण आगतं षि इति रूपं। षि इत्यस्य अन्यप्राधान्यमपि अस्ति। नपुंसकलिङ्गपदेषु सर्वनामस्थानसंज्ञकः प्रत्ययाः के इति प्रश्नः आयाति। सर्वनामस्थानसंज्ञा इति एका संज्ञा अस्ति। पुंलिङ्गपदेषु स्त्रीलिङ्गपदेषु प्रथम पञ्च प्रत्ययाः सर्वनामस्थानसंज्ञकाः इत्युक्ते सु औ जस् अम् औट् पर्यन्तम् इत्युक्ते प्रथमाविभक्ति त्रयः प्रत्ययाः, द्वितीयाविभक्ति द्विवचनपर्यन्तम्। एतेषां पञ्चानां प्रत्ययानां नाम अस्ति सर्वनामस्थानसंज्ञा। पुंलिङ्गे स्त्रीलिङ्गे एव सुडनपुंसकस्य इति सूत्रेण केवलं पुंलिङ्गे स्त्रीलिङ्गे एव एतेषां पञ्चानां प्रत्ययानां नाम सर्वनामस्थानसंज्ञा। किन्तु नपुंसकलिङ्गे किं भवति? नपुंसकलिङ्गे प्रथमा विभक्ति बहुवचनप्रत्ययः, द्वितीया विभक्ति षी प्रत्ययस्य स्थलद्वये एव सर्वनामस्थानसंज्ञा अस्ति। नपुंसकलिङ्गे केषां प्रत्ययानां सर्वनामस्थानसंज्ञा अस्ति इति चिन्तयामश्चेत् षी प्रत्ययस्य एव सर्वनामस्थानसंज्ञा अस्ति। षी प्रत्ययः कुत्र आयाति? प्रथमाविभक्ति बहुवचने, द्वितीयाविभक्ति बहुवचने। षी प्रत्ययस्य एव सर्वनामस्थानसंज्ञा अस्ति नपुंसकलिङ्गे। ज्ञानन् नुमागमः ज्ञान इति प्रातिपदिकस्य अवयवः अभवत्, तस्य परतः इ इति सर्वनामस्थानसंज्ञकप्रत्ययः अस्ति। एतादृशी स्थितिः अस्ति चेत् इत्युक्ते सर्वनामस्थानसंज्ञकप्रत्ययः परः अस्ति चेत् असम्बुद्धौ, असम्बुद्धौ इत्युक्ते सम्बोधनाविभक्तिः नास्ति, सम्बोधनाविभक्तिः नास्ति। अत्र ज्ञानानि इति पदस्य रूपं सम्बोधनारूपं नास्ति। सर्वनामस्थाने, सर्वनामस्थाने इति सप्तम्यन्तं पदमस्ति इत्युक्ते सर्वनामस्थानसंज्ञकप्रत्ययः परः अस्ति चेत् अङ्गस्य उपधायाः दीर्घः। अत्र ज्ञानन् इति रूपम् अस्ति। तत्र उपधा का? उपधावर्णः कः? चिन्तयन्तु, तत्र नकारात् पूर्वं ह्रस्व अकारः अस्ति, सः ह्रस्व अकारः एव उपधावर्णः। तस्य ह्रस्व अकारस्य दीर्घत्वं भवति सर्वनामस्थाने च सम्बुद्धौ इति सूत्रेण भवति। तदानीम् एव ज्ञाना इति रूपं सिद्ध्यति। इदानीं वर्णमेलनेन ज्ञानानि इति रूपम् आहत्यत्र सर्वनामस्थानसंज्ञा का इति ज्ञातव्यम्। सर्वनामस्थाने च सम्बुद्धौ सूत्रेण किं भवति? उपधासंज्ञकवर्णस्य दीर्घत्वं भवति। तदर्थमेव ज्ञानानि, वनानि, कर्माणि दीर्घत्वं श्रूयते। प्रातिपदिकं तु ज्ञान एव, अनेन सूत्रेण उपधायाः दीर्घत्वं भवति। उपधायाः दैर्घ्यं भवति. न अभविष्यत् इति पदमस्ति, अभविष्यत् इति लृङ्लकाररूपमस्ति, सन्धिं कृत्वा अत्र लिखितमस्ति न अभविष्यत् नाभविष्यत्.
महोदय क्षम्यताम्, एकः प्रश्नः अस्ति अत्र, ज्ञानयोग न अत्र कस्य सूत्रस्य आधारेण नकाराय अत्र ज्ञान? प्रथमतया वयम् एकं सूत्रं दृष्टवन्तः, इदितोनुं दातु, यत्र इकारस्य इत्संज्ञा अस्ति तत्र नमामकं भवति, अत्र इकारस्य इत्संज्ञा अपि नास्ति, नकार कुत्र आयाति?
ज्ञान इति प्रातिपदिकं ज्ञाधातुतः ल्युट् प्रत्ययस्य योजनेन ज्ञान इति प्रातिपदिकं सिद्ध्यति. इदं पदं सुबन्तपदम्, आदौ कृदन्तपदं, ज्ञाधातुतः ल्युट् प्रत्ययस्य योजनेन युवोरनाकौ इति सूत्रेण अन आदेशः भूत्वा ज्ञान इति प्रातिपदिकं सिद्ध्यति. तत्पश्चात् ज्ञानानि इति बहुवचनरूपं साधयितुम् इमानि सोपानानि. न कुतः आगतः इति पृष्टवान् महोदय, कस्य प्रसङ्गे वदन् अस्ति?
ज्ञानयोग ज्ञानयोग न अस्ति न, ज्ञानयोग न योग इति अस्ति अत्र मध्ये न अस्ति, तत् कुतः आयाति?
नपुंसकस्य झलचः इति विधिसूत्रमस्ति, विधिसूत्रं न दत्तमस्ति अस्मिन् परिच्छेदे, विधिसूत्रमपि अत्र वक्तव्यमेव. नपुंसकस्य झलचः इति सूत्रेण नपुंसकलिङ्गपदेषु नुमागमः भवति इति सूत्रेण अत्र नुमागमः भूत्वा नकारः आगतः. अग्रिमे परिच्छेदे एतदेव किञ्चित् भिन्नरीत्या लिखितम् अस्ति. रोहिणी भगिनी भवती पठतु अग्रिमे परिच्छेदे किं लिखितम्.
प्रश्नः, अत्रोक्तं ज्ञानयोग इति शीप्रत्ययः, केचन श्रुतवन्तः स्युः यत् सुबन्धविषये प्रत्ययाः भवन्ति सु औजस् इत्यादयः, तर्हि प्रथमपुरुषस्य बहुवचने जस् इति प्रत्ययः भवेत् किल, कथं वा शि इति जातम्? उत्तरमस्ति यत् मूलप्रत्ययाः सु औजस् इति तु सत्यं, किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति, इत्युक्ते मूलप्रत्ययानां स्थाने आदेशाः भवन्ति. सुबन्धविषये लिङ्गमनुसृत्य कुत्रचित् प्रातिपदीयस्य अन्तिमवर्णम् अनुसृत्य च आदेशाः भिद्यन्ते. नपुंसकलिङ्गे चषसोः षि इत्यनेन नपुंसकात् अङ्गात् जस्थाने षि आदेशः, अनेन नपुंसकलिङ्गे प्रथमपुरुषस्य बहुवचने इकारः आयाति. वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनुषि, मनांसि. प्रश्नः, कथम् ई ज्ञानयोग ई षि प्रत्ययः? साधारणतया सुबन्धविषये सु औजस् आयाति इत्यस्य उत्तरं दत्तम् अत्र. अत्र प्रथमपुरुषस्य बहुवचने जस् आयाति, द्विवचने क्षम्यताम्,
द्वितीयाविभक्तिः
बहुवचने शत् अपि आयाति. जस् असोः षि इति अनेन सूत्रेण जस् शत् इति अनयोः षि आदेशः भवति. षि इत्यस्य शकारः इत् भवति दशक अधिद्वे इति सूत्रेण इकार अवशिष्यते. तद् इत्यत्र इकार बुध आयाति.
उत्तम. सुबन्तप्रक्रियायाः प्रसङ्गे एकविंशतिप्रत्ययाः सन्ति, सु औजस् इत्यादयः, अपि च जस्योः शिः इति सूत्रेण प्रथमाविभक्ति बहुवचने जस् प्रत्ययस्य स्थाने, द्वितीयाविभक्ति बहुवचनप्रत्ययः शस् प्रत्ययस्य स्थाने, अनेन सूत्रेण षि आदेशः सर्वादेशः भवति. षि इत्यस्य सर्वनामस्थानसंज्ञा अस्ति इति अपि अवगन्तव्यम्. षि सर्वनामस्थानम् इति एकं सूत्रमस्ति, षि सर्वनामस्थानम् इति संज्ञासूत्रं, तेन षि प्रत्ययोः सर्वनामस्थानसंज्ञा अस्ति. किमर्थम् एतत् सर्वं ज्ञातव्यम्? षि इत्यस्य सर्वनामस्थानसंज्ञा अस्ति इति जानीमश्चेदेव तादृश सर्वनामस्थानसंज्ञकप्रत्ययः परः अस्ति चेत् एव सर्वनामस्थाने च असम्बुद्धौ इति सूत्रेण असम्बुद्धौ इत्युक्ते सम्बोधनाविभक्तिः नास्ति चेत्, सर्वनामस्थानसंज्ञकप्रत्ययः षि प्रत्ययः परः अस्ति चेत् उपधायाः दीर्घत्वम् इति अपि च अस्मिन् परिच्छेदे एकं वाक्यं लिखितम् अस्ति, पश्यन्तु, सुबन्तविषये लिङ्गम् अनुसृत्य कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य आदेशाः भिद्यन्ते. इदं वाक्यं मुख्यवाक्यमस्ति. अत्र नपुंसकस्य झलचः इति सूत्रं नपुंसकलिङ्गपदेषु नुमागमः भवति इति नपुंसकलिङ्गपदानां प्रसङ्गे एव उक्तमस्ति. लिङ्गमनुसृत्य आदेशाः भिद्यन्ते, प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्यापि आदेशाः भिद्यन्ते. इत्युक्ते अकारान्तप्रातिपदिकमस्ति चेत् भिन्नकार्याणि, सकारान्तप्रातिपदिकमस्ति चेत् भिन्नकार्याणि. इत्युक्ते प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य आदेशाः भिद्यन्ते. सुन्दरमहोदय वदतु.
अस्माभिः कथं ज्ञातव्यम् एतत्?
किञ्चित् किञ्चित् पठनीयं खलु
भगिनी? एकः प्रश्नः अस्ति मम. एकं सूत्रं तु अस्ति सर्वनामस्थाने चासम्बुद्धौ, अन्यसूत्रमस्ति अत्र नपुंसकलिङ्गे जशस्तिः. सर्वनाम इति विषय अत्र कुतः आयाति? इत्युक्ते तस्य आवश्यकं किम् इति प्रक्रियायाम्, इत्युक्ते सुबन्तप्रक्रियायां ज्ञानयोगः जस् वा शस् वा, तदनन्तरं किम् अभवत् शि आयाति? कुतः आयाति नपुंसकलिङ्गे जषष्टसोः शिः? तदनन्तरं नुमागमः भवति, कथं भवति नपुंसकस्य झलचः? तदनन्तरं दीर्घत्वं भवति. अस्तु अस्तु अस्तु, सर्वनामस्थाने चासम्बद्धौ इति सूत्रेण उपधा दीर्घ सर्वनामस्थाने भवति इति, इत्युक्ते अन्तिमप्रक्रिया अन्तिम सोपानम्. अवगतं भगिनि.
सर्वनाम इति कथम् अस्माभिः ज्ञातव्यं
महोदय? व्याकरणे बहवः संज्ञाः सन्ति. संज्ञा इत्युक्ते नामकरणं, केवलम् एकं नाम तावदेव. सर्वनामस्थानसंज्ञा यथा वृद्धिसंज्ञा अस्ति, गुणसंज्ञा अस्ति, एवं रीत्या सर्वनामस्थानसंज्ञा अस्ति. केन सूत्रेण सर्वनामस्थानसंज्ञा दीयते? पुंलिङ्गपदेषु अपि च स्त्रीलिङ्गे सु औजस् अम् औट् इत्युक्ते औट् द्वितीयाविभक्ति द्विवचनपर्यन्तं तेषां पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा अस्ति सुडनपुंसकस्य इति सूत्रेण. सुट् अनपुंसकस्य, तत्र एकं सूत्रमस्ति सुडनपुंसकस्य इति सूत्रेण पुंलिङ्गे स्त्रीलिङ्गे सर्वनामस्थानसंज्ञा दीयते, किन्तु नपुंसकलिङ्गे केवलं षि प्रत्ययोः एव सर्वनामस्थानसंज्ञा अस्ति. षि इति प्रत्ययः कुत्र आयाति? प्रथमा बहुवचने, द्वितीयाविभक्ति बहुवचने एव षि प्रत्ययादेशः भवति. अत्र लिखितमस्ति जशशोः षिः सूत्रेण नपुंसकात् अङ्गात् जस् स्थाने षि आदेशः, शस् स्थाने षि आदेशः. षि आदेशः भवति चेत् तत्र षि इत्यस्य सर्वनामस्थानसंज्ञा अस्ति इति अवगन्तुं पुनः एकं संज्ञासूत्रमस्ति षि सर्वनामस्थानम् इति सूत्रं. षि सर्वनामस्थानम् इति सूत्रेण षि प्रत्ययस्य एव सर्वनामस्थानसंज्ञा भवति नपुंसकलिङ्गे. किमर्थं सः विषयः अत्र आवश्यकः इत्युक्ते तादृशः सर्वनामस्थानसंज्ञकप्रत्ययः परः अस्ति चेदेव उपधायाः दीर्घत्वं भवति इति सर्वनामस्थाने चासम्बुद्धौ इत्यनेन उच्यते. तदर्थमेव अत्र ज्ञानानि इत्यत्र ज्ञाना इति तत्र दीर्घ आकारः कुतः आगतः इत्युक्ते एवमेव सर्वनामस्थाने चासम्बुद्धौ इत्यनेन आगतः. अत्र अस्माकं वार्ता का? नपुंसकस्य झलचः सूत्रेण नुमागमः भवति खलु, सः नुमागमः अन्तिम अवयवः भवति चेदेव अत्र उपधायाः दीर्घत्वं भवति. एकवारं सर्वे चिन्तयन्तु, ऊहां कुर्वन्तु. अत्र नुम् आगमः इति उक्तमस्ति. नुम् इति अनुक्त्वा नुट् इति कथनेन किं भवति? नुट् आगमः इति वदामश्चेत् सः नकारः आदौ आयाति. नपुंसकस्य झलचः इति सूत्रेण नुमागमः भवति, किन्तु सः आगमः नुम् नास्ति. नुट् अस्ति चेत् सः नकारः आदौ आयाति, नो चेत् सः आगमः नुक् आगमः अस्ति चेत् कित् भूत्वा अन्ते आयाति. त तादृशी स्थितिः मास्तु, तथा भवति चेत् तत्र अनिष्टं रूपं सिद्ध्यति इति मत्वा अत्र आगमः नुम् भवति, नुम् अन्तिम अचुवर्णात् परं भवति, पश्चात् सः तस्य अन्तिम अवयवः अपि भवेत्, तदानीम् एव सर्वनामस्थाने च सम्बुद्धौ इत्यनेन कार्यं भवति. एकवारं सर्वे चिन्तयन्तु, ज्ञानन् एकवारं लिखित्वा परिशीलयन्तु. ज्ञानन् इत्यत्र अन्ते नकारः अस्ति, नकारात् पूर्वम् अकारः अस्ति. तादृशी स्थितिः ज्ञान इति प्रातिपदिकस्य अन्तिम अवयवः न भवति चेत् अयं नकारः तत्र अनिष्टं रूपं सिद्ध्यति. तस्मात् परं सर्वनामस्थानसंज्ञकप्रत्ययः अपि भवेत्, तदानीम् एव उपधायाः दीर्घत्वम्, उपधायाः दैर्घ्यं भवति. एतत् सर्वं सुबन्तप्रक्रियायाः विषयः. किञ्चित् भ्रमः अस्ति चेत् चिन्ता मास्तु, पुनः एवं रीत्या पठिष्यामः, तेन अस्माकम् अवगमनम् इतोपि स्पष्टं भवति. पुनः अणिद्धातोः प्रसङ्गः अस्ति, तत् पठित्वा समापयामः. नरसिंह हेग्डे महोदय, भवान् पठतु.
निधि इति निध् धातो नकारोत्तरवर्ति इकार अन्तिम अच्, अतः तस्मात् परे नुम् आयाति. तर्हि निनद् इति स्थितिः, निन्द् इति धातुः निष्पन्न. निधि इति धातोः इकारस्य इत्संज्ञा अस्ति, अतः इदितनुम् धातु इत्यनेन नकारः आयाति अत्र, निन्द् इति भवति. तर्हि निन्द् निन्द् इति भवति, निन्द् इति धातुः निष्पन्नः भवति. तथैव मदि मन्द् भवति, वदि वन्द् भवति, मदि बन्द् भवति, चदि चन्द् भवति, गदि गन्ध् भवति. परन्तु त्रापि त्रम्प् भवति. त्रम्प् इत्यस्मिन् किमर्थं मकारः न तु नकारः, वस्तुतः नकारः आयाति एव, तदा नकारस्थाने अनुस्वारः अनुस्वारस्थाने त्वर्गीय अनुनासिकवर्णः आयाति. यथा वदि वन्द् 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 अत्र प्रथमतया नकारः आयाति, अनन्तरं नश्च पदान्तस्य जले इत्यनेन अनुस्वारः भवति, अनुस्वारस्य ऐ पारसवर्ण इत्यनेन तस्य वर्गस्य अन्तिम अनुनासिकवर्णः आयाति. अतः अत्र त्रम्प् इत्यनेन अन्तिम अनुस्वारस्य पकारस्य अन्तिम अनुनासिकवर्णं मकारः अस्ति, तत् आयाति अत्र, तं त्रं भवति. अन्य सर्वत्र नकारः एव आयाति. बन्द् 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 इति अत्र अन्तिमवर्णः नकारः अस्ति, नकारः एव आयाति. अत्र पकारस्य अन्तिमवर्णः पवर्गस्य मा अस्ति, अतः मकारः आयाति, त्रम्प् इति भवति. तदेव व्यत्यासः.
उत्तमम्, साधु महोदय, साधु महोदय, तदेव. अत्र केचन धातवः सन्ति, मद्यौ इदित् धातुः, वद्यौ भद्यौ छद्यौ ग्लद्यौ त्रप्यौ, एते धातवः इदितः सन्ति. एतेषु धातुषु अनुनासिक ह्रस्वइकारः इत्संज्ञकः, तस्य लोपः भूत्वा आदौ मद् भवति, किन्तु धातुः इदित् अस्ति इति कारणतः इदितोनुम् धातोः इति विधिसूत्रेण मध्ये नुमागमः, मेदचोन्त्यात् परः इति सूत्रेण अन्तिम अचुवर्णात् परं सः नकारः आयाति, तेन मद्यौ इति औपदिशकधातोः रूपं मन्द् भवति. नुमागमः भूत्वा नकारः अन्तिम अचुवर्णस्य अनन्तरम् आयाति. एवमेव वद्यौ औपदेशकधातुतः वन्द्, वन्दते इति वयं जानीमः खलु, अहं वन्दे, तत्र धातुः इदित् धातुः. एवमेव भद्यो भन्द् भवति. एतेषु धातुषु यः दन्त्यनकारः नुमागमरूपेण आगतः सः दन्त्यनकारः यथावत् तिष्ठति, किन्तु कुत्रचित् तस्य परिवर्तनं भवति. त्रप्यम् इति धातोः प्रसङ्गे किञ्चित् वैशिष्ट्यमस्ति, तत्र नकारस्य स्थाने मकारः आगतः. किमर्थम् इति प्रश्नः उदेति. धातुः तु इदित् धातुः एव, इदित् धातुः अस्ति इति कृत्वा इकारस्य इति संज्ञा, पश्चात् इदितोनुम् धातोः इत्यनेन नुमागमः भूत्वा त्रन्प् मध्ये नकारः आयाति, किन्तु मकाररूपेण तस्य परिवर्तनं भवति. एतत् सर्वं किमर्थं भवति इति प्रश्नः उदेति. तदवगन्तुं कानिचन सूत्राणि ज्ञातव्यानि. अत्र महोदयेन उक्तमेव, वन्द् लौकिकधातोः प्रसङ्गे इतोपि विवरणं दत्तमस्ति. पश्यन्तु, वदौ धातुतः अनुबन्धलोपे सति वद्, पश्चात् इदितोनुम् धातोः सूत्रेण नुमागमः भूत्वा दन्त्यनकारसहितं रूपं वन्द् भवति. पश्चात् नश्चापदान्तस्य झलि अपदान्तनकारमकारयोः इति झल् प्रत्याहारस्थवर्णः परः अस्ति चेत् अत्र झल् प्रत्याहारस्थवर्णः दकारः. दकारः झल् वर्णः अस्ति, अपदान्तनकारः अस्ति इति कृत्वा, इत्युक्ते पदं नास्ति. पदं कदा वदामः? तस्य अन्ते तिङ्प्रत्ययः अथवा सुप्रत्ययः अस्ति चेदेव पदम् इति वदामः. अत्र पदं नास्ति. अपदान्तनकारस्य स्थाने झल् वर्णे परे अनुस्वारादेशः भवति इति नश्चापदान्तस्य झलि सूत्रेण उच्यते. तेन वन्द् अनुस्वारसहितं रूपम् आगतम्. पश्चात् तत्र अनुस्वारस्य स्थाने अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने तवर्गीय अन्तिम अनुनासिकव्यञ्जनम् आयाति. परसवर्णः कः इति अपि ज्ञातव्यम्. कथं परसवर्णस्य निर्णयः क्रियते इति अवगन्तुं तत्र चिन्तनमस्ति. अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने पुनः तवर्गीयदन्त्यनकारः आयाति. आहत्यत्र वन्द् धातोः प्रसङ्गे परिवर्तनं न दृश्यते. किमर्थं चेत् दन्त्यनकारात् परं तवर्गीयव्यञ्जनं दकारः अस्ति इति कृत्वा परसवर्णः अपि पुनः दन्त्यनकारः एव. तदर्थं वन्द् इति रूपं दन्त्यनकारसहितं रूपमेव अत्र दृश्यते. किन्तु त्रम्प् इत्यस्मिन् विषये भेदम् अवगन्तुं शक्नुमः. तत्र दन्त्यनकारस्य स्थाने पवर्गीय अन्तिम अनुनासिकव्यञ्जनस्य आदेशः भवति. केन सूत्रेण? अनुस्वारस्य ययि परसवर्णः इति सूत्रेण भवति. यः नकारः नुमागमरूपेण आगतः तस्य परिवर्तनं भवति केषुचित् स्थलेषु. तद्रूपं यथावत् न तिष्ठति, तस्य रूपपरिवर्तनं भूत्वा तत्तत्वर्गीय अन्तिम अनुनासिकवर्ण आदेशः भवति. तदर्थमेव अत्र त्रीणि रूपाणि दत्तानि. पश्यन्तु, लाच्यौ इति धातुतः लाञ्च्, कप्यौ धातुतः कम्प्, लभ्यौ धातुतः लम्ब् इति रूपं साधनीयम्. निर्मला भगिनी, लाच्यौ इत्यस्य प्रसङ्गे वदतु. सोपानानि कानि?
लाच्यौ इति धातु इति रूपस्य उपदेशे अजनुनासिक इति कारणेन अनुस्वारः इकारः अपगच्छति, अतः लाच् इति रूपं सिद्ध्यति. तदनन्तरं इदितो नुन् धातोः इति कारणेन लाञ्च् इति नुमागमः आगत्य लाञ्च् इति रूपं सिद्ध्यति. तत् अनन्तरं नश्च पदान्तस्य झलि इति कारणेन झल् चकारः झल् वर्णः अस्ति इति कारणेन नश्चात् पदान्तस्य इति कारणेन नकारः अनुस्वारः रूपं स्वीक्रियते. तदनन्तरं पुनः अनुस्वारस्य ययि परसवर्णः इति कारणेन चकारस्य चवर्गस्य अन्तिमवर्णः ञ अस्ति, अतः अनुस्वारः पुनः इति रूपं स्वीकृत्य लाञ्च् इति रूपं सिद्ध्यति.
तादृशानि सोपानानि सन्ति. कप्यौ इत्यस्मात् कम्प् भवती एव वदतु.
कपे इति प्रातिपदिकं स्वीक्रियते चेत् धातु स्वीक्रियते चेत् पूर्वमेव उक्तमेव उपदेशे अजनुनासिक इति कारणेन कप् इति भवति. कप् सोपानात् इदितो नु आदौ धातोः इति कारणेन कम्प् इति कथं वक्तव्यम् इति न जानामि, किन्तु कन्प् नकारः अनुमागमः भवति, तदनन्तरं पकारः अस्ति इति कारणेन पवर्गीय अन्तिमस्वरः मकारः अस्ति इति कारणेन, नश्चापदान्तस्य झलिः अस्ति इति कारणेन अनुस्वारः रूपं स्वीक्रियते, तदनन्तरं पवर्गस्य अन्तिमस्वरः मकारः अस्ति इति कारणेन अनुस्वारस्य यै परसवर्णः इति कारणेन अनुस्वारः पुनः मकाररूपं स्वीक्रियते, अतः कम्प् इति भवति। एवमेव लम्भि इति लम्भिर् इति रूपस्य उपदेशे अजनुनासिक इति कारणेन लब् लब् भवति, तदनन्तरं नुमागमः भूत्वा लम्ब् भवति, लम्ब्तः अनुस्वारः बकारः अस्ति इति कारणेन पवर्गस्य अनुस्वारः रूपं पवर्गः अस्ति इति कारणेन नकारः मकारः अनुस्वारः भवति, अन्तिमसोपानम् अनुस्वारस्य यै परसवर्णः इति कारणेन पकारस्य अन्तिमस्वर वर्णः मकारः अस्ति इति पञ्चमवर्णः मकारः इति कारणेन लम्ब् भवति।
उत्तमम्। अत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रं ज्ञातव्यम्। इदित् धातुषु नुमागमः भवति, किन्तु सः नकारः यथावत् दन्त्यनकाररूपेण न तिष्ठति। आदौ दन्त्यनकारस्य परिवर्तनं भूत्वा नश्चापदान्तस्य झलि इति सूत्रेण परवर्णः झल् वर्णः अस्ति चेदेव तत्र अनुस्वारः आयाति, इत्युक्ते दन्त्यनकारस्य परिवर्तनं भूत्वा अनुस्वारः आदौ आयाति, पश्चात् अनुस्वारस्य स्थाने अनुस्वारस्य ययि परसवर्णः सूत्रेण परसवर्णादेशः भवति। किन्तु परसवर्णः कः, तस्य निर्णयः कथं क्रियते, एतत् सर्वम् आगामिनि सप्ताहे चर्चयिष्यामः। तावता भवन्तः सर्वे सूत्राणां प्रसङ्गे एकवारं पठन्तु, तेन अस्माकम् अवगमनम् इतोपि सुदृढं भवति। प्रत्येकं सूत्रं स्वीकृत्य तस्मिन् सूत्रे निमित्तं किं, कार्यं किम्, इमानि सन्धिसूत्राणि अष्टाध्याय्यां त्रिपाद्यां सन्ति, त्रिपाद्यां सन्ति इति कारणतः तेषां कार्यम् अन्ते एव भवति, त्रिपादीकार्याणि इमानि। सूत्राणां प्रसङ्गे किञ्चित् पठन्तु। इदानीम् अत्र स्थगयामः। सर्वेषां धन्यवादाः।